तन्नवोचामरभसा यजन्मने पूर्वम् महित्वम् वृषभस्य केतवे ऐधेवजामन्मरुतश्च विष्वणो युधेव शक्रास्तभिषाणिकर्तना नित्यन्नसोदम् मधुबिभ्रत उपक्रीडन्ति क्रीडाभिदथेषु घृष्वजः नक्षन्ति रुद्रा अवसानमस्विनन्नमर्धन्ति स्वतपसोऽहमिष्कृतम् यस्मा उमासो अमृता अरा सत राजस्पोषं च हविषा ददाशुषे उक्षन्त्यस्मै मरुतो हिता इव पुरोरजांसि पयसामजो भुवाः आये रजांसि तमिषेभिरव्यत प्रभ एवा सस्वजतासो अध्रजन् भयन्ते विश्वाभुवनानि हर्म्या चित्रो भोजाभः प्रयता सृष्टिषु यत्त्वेषयामानदयन्त पर्वतान् दिवो वा पृष्ठन्नर्या अचुच्यवः विश्वा भो अज्मन् भजते वनस्पतिरथेजन्ति वप्रजिहेत ओषधिः योजन्न उग्रामरुतः सुचेतुनारिष्टग्रामाः सुमतिम् पिपर्तन यत्रा बोधिद्योद्रदति कृविर्दति ऋणाति पश्वः सुधितेव बर्हणा प्रस्कम्भदेष्णा अनभभ्रराधसोला तृणासो विदधेषु सुष्टुताः अर्चन्त्यर्कम् मदिरस्य पीतजे विदुर्वीरस्य प्रथमानिपौंस्याः शतभुजिभिस्तमभिहृते रघात् पूर्वैरक्षता मरुतो यमावत जनञ्जमुग्रास्तवसो विरप्सिनः पाथनाशं सात्तनयस्य पुष्टिषु विश्वानि भद्रामरुतो रथेषु वामितस्पृध्येवतभिषाण्याहिता हंसेष्वावः प्रपथेषु खादजोक्षो वश्चक्रासमजा विवावृते भूरीणि भद्रानर्येषु बाहुषु वक्षस्व रुक्मारभसासो अञ्जयाः अंसेष्वेताः पविशुक्षुरा अधिमजो न पक्षान्व्यनुश्रियोधिरे महान्तो मह्ना विभो अविभूतयो दूरे दृशो ये दिव्या इवस्त्रभिः मन्द्रासु जिह्वास्वरितार आसभिः सम्मिष्ट्ला इन्द्रे मरुतः परिष्टुभाः तद्वस्सुजाता मरुतो महित्वनम् दीर्घम् वो दात्रमदितेरिव व्रतम् इन्द्रश्च नत्यजसा विकृणाति तज्जना यजस्मै सुकृते अराध्वम् तद्वोजामित्वम् मरुतः परे युगे पुरो यच्छम् सममृता स आपत अजाधिजा मनवे सृष्टिमाव्या सा कन्नरो दंसनैराचिकित्रिरे येन दीर्घम् मरुतः शोषमा मयुष्माके न परीणसातुरा सह आयत्ततनन् व्रजने जना स एभिर्यज्ञेभिस्तदभीष्टिमश्याम् एष भस्तोमो मरुत इयङ्गीर्मान्दार्यस्य मान्यस्य कारोः एषा जासेष्टतन्वे वजाम् विद्यामेषम् व्रजनम् जीरदानम्